ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ नमस्ते।
धन्यवाद भगिनी। सर्वेभ्यो नमस्कार, सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र स्वरसन्धिः इति। तस्मिन् विषये वयं तत्र पाठं पठितवन्तः, एकादशपुटे पाठः यः वर्तते तं पाठं पठितवन्तः। अपि तत्र पङ्क्तिशः तत्र प्रथमपुटं परिशीलितवन्तः, अतः इदानीं तत्र द्वितीयपुटं परिशील्य अग्रे तत्र स्वरसन्धिविचारम् आरम्भं कर्तुं शक्नुमः। तर्हि तत्र द्वितीय पुटे पुटं तत्र आरम्भतः तत्र अस्तु। तर्हि तत्र सुजाता भगिनी एकवारं पठति वा तत्र?
आम् महोदय, सञ्जयः एवम् उक्तार्जुनः रथोपस्थ उपाविशत्, तदा कृपयाविष्टम् अर्जुनं मधुसूदनः इदं वाक्यम् उवाच। एवम् उक्त्वा उक्तार्जुन अर्जुनः
उक्त्वा उक्त्वा
उक्तवान् रथोपस्थ उपाविशत्, रथे उपविष्टवान् उपविष्टवान्
हा
रथो रथे उपविष्टवान् तदनन्तरम् एवम् उक्तवान्। तदा कृपया आविष्टम् अर्जुनं मधुसूदनः इदं वाक्यम् उवाच। करुण न दयापूर्णहृदये अर्जुनः मधुसूदन प्रति
नाम
एवम्
तत्र अस्तु अस्तु नाम दयापूर्णः अर्जुनः अस्ति
आम्
खलु?
आम्
अर्जुनः
महोदय
दयापूर्णः अस्ति, तम् अर्जुनम्
आम् तम् अर्जुनं
मधुसूदनः उवाच। नाम
उवाच
उवाच नाम वदति, नाम कं वदति, किं वदति इति अस्ति खलु?
आम् महोदय
हा अतः तत्र अर्जुनं मधुसूदनः अर्जुनम्
प्रति
इदं वाक्यम् उवाच।
आम् महोदय। कृष्णः अर्जुन
कुतः कुतः कुतः
कुतः त्वाम् इदं कश्मलं समुपस्थितं पार्थ,
क्लैब्यं क्लैब्यं
क्लैब्यं
क्लैब्यं
क्लैब्यं मा प्राप्नुहि, न त्वयि उपपद्यते, परन्तप क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ। अर्जुन कृष्णः वदति अर्जुन कश्मलं कितं कुतः आगतः भवान् हृदये
हा भवतः हृदये खलु, भवतः हृदये भवतः हृदयं कथम् आगतमस्ति कष्मदं नाम एतादृशं असम्यक् चिन्तनम् असमीचीनं चिन्तनं कथम् कुतः नाम कुतः इति किमर्थम् अथवा कुतः इत्युक्ते साक्षात् कुतः आगतम् अग्रे
क्लैभ्यं मा प्राप्नुहि क्लैभ्यं मतलब डोण्ट् गेट्
नाम तत् धैर्यं भवेत् नाम धैर्यहीनं मास्तु
न एतत् त्वयि उपपच्यते
दुर्बलः मा भवतु इति
परन्तप अर्जुन क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ
तत्र अस्तु भगिनि तत्र अस्तु एतावत् समीचीनम् अग्रे अन्य कोऽपि पठेत् समीचीनम् अस्तु समीचीनं भगिनि अस्तु अग्रे हर्षदा भगिनि तत्र कुतः त्वाम् इदं कष्मलं समुपस्थितं समीचीनं तदनन्तरं पार्थः इति आरभ्य
तत् पार्थ क्लैभ्यं तः पठामि वा पार्थ क्लैभ्यं मा प्राप्नुहि पार्थ इत्युक्ते अर्जुन क्लैभ्यं मा प्राप्नुहि क्लैभ्यं शब्दार्थ तु नपुंसकत्व इति अस्ति खलु
इति अस्ति अथवा
दौर्बल्यं दौर्बल्यं भवान् दुर्बलः मा भवतु इति
न प्राप्नुहि लकारः कः प्राप्नुहि
प्राप्नुहि अरे बाबा विस्मृतवती महोदय
समीचीनं लोट् एव मध्यमपुरुषे
लोट् एव लोट्
नाम तत्र देहि पाहि सर्वमस्ति खलु
आम् आम् आम्
देहि पाहि त्राहि माम् तथैव प्राप्नुहि त्वं प्राप्नुहि मां प्राप्नुहि
मध्यमपुरुष एकवचनम्
एकवचनं
whenever मध्यम पुरुष comes there is always a confusion
सत्यं सत्यं भगिनी
वयं न उपयोजयामः खलु मध्यम पुरुष आगच्छति तदा भवान् भवति एव उपयोजयामः वयं
सत्यं सत्यं तद्रूपमेव
किञ्चित् क्लेशः भवति किञ्चित् क्लेशः भवति तत्र नैतत् त्वयुपपद्यते न एतत् त्वयि उपपद्यते न एतत् त्वयि त्वयि सप्तमी उपपद्यते उपसर्गेण सह पद्यते इति इस् लट्लकार प्रथमपुरुष एकवचनम्
एतत् समीचीनं नास्ति नाम त्वयि एतत् भवितुम् अर्हति
त्वयि एतत् न भवितुम् अर्हति परन्तु अहं चिन्तयामि अस्तु अनन्तरं द्रक्ष्यामि अहं परन्तप इति अपि अर्जुनस्य अपरं नाम क्षुद्रं हृदय दौर्बल्यं त्यक्त्वोत्तिष्ठ बापरि त्यक्त्वा उत्तिष्ठ त्यक्ता अगेन् लेबन्त अस्ति सोरि त्वान्त अस्ति अत्र बहवः त्वान्तरूपाणि सन्ति त्यज धातोः त्वान्त अस्ति हृदय दौर्बल्यं भवान् त्यजतु हृदय दौर्बल्यं भवतः कृते न तत्तु दुर्बलस्य लक्षणमस्ति अतः भवान् तत् त्यजतु उत्तिष्ठतु युद्धं कर्तुम् उत्तिष्ठतु इति भावः
समीचीनं अग्रे अन्य कोऽपि करेत् समीचीनं भगिनि
अस्तु अस्तु धन्यवादः
धन्यवादः अस्तु अग्रे तत्र वेदा भगिनि
हा महोदय अर्जुनः मधुसूदन अहं भीष्मं द्रोणं च कथं इषुभिः प्रतियोष्यामि मधुसूदन अर्जुनः कृष्णम् उद्दिश्य वदति अहं भीष्मं द्रोणं च कथं इषुभिः प्रतियोष्यामि किमर्थं युनो भीष्मः अपि च द्रोणः मम आचार्यः अपि च मम भीष्म पितामहः अस्ति तत्कारणेन किमर्थम् अहं किम् इषुभिः किमर्थं तं प्रतियोष्यामि इत्युक्ते प्रयोगं कर्तुं शक्नुमः इति द्वा इमौ द्वौ इमौ पूजार्हावरिसूदन
पूजार्हेदनं कृतं खलु
पूजाहौ अरिसूदन पूजार्हौ अरिसूदन द्वाविमौ द्वौ इमौ पूजार्हौ अरिसूदन अरिसूदन द्वे इमौ द्वे इमौ न किं वदामि द्वे अपि मम पूजा मम पूजां अर्हसि पूजा योग्य
पूजा योग्यः पूजनीयः
पूजनीयः द्वौ इमौ मम पूजा योग्यः अतः किमर्थम् अहम् इषुभिः प्रतियोष्यामि इति अर्जुनः वदति अपि च गुरून् अहत्वा भिक्षं भोक्तुं यत् इष्यते तद् अपीह लोके श्रेयः गुरून् अहत्वा भिक्षम् इत्युक्ते भिक्षं भोक्तुं यत् इष्यते तद् अपि इह लोके श्रेयः गुरून् अहत्वा
नाम
अहत्वा इत्युक्ते हनन्ति अहं यदि गुरून्
किन्तु
हननं यदि अहं गुरून् हननं करोमि तं
न तत्र अत्र अ इत्युक्ते न
भूतकाले
न न न तत्र ओ अ इति तत्र न कृत्वा
अहत्वा करेक्ट् 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 न कृत्वा गुरून्
हननं
न कृत्वा भिक्षं भोक्तुं यत् इष्यते
भिक्षं नाम
किम् अस्ति भिक्षं
तत्र भिक्षुकः यत् प्राप्नोति तदस्ति भिक्षम्
ओहो
भिक्षात् यत् प्राप्नुमः तदस्ति भिक्षम्
ओके भिक्षं भोक्तुं यत् इष्यते तद् अपि इह लोके श्रेयः
नाम
किम् अस्ति तत्र
कः श्रेयः तत्र किं श्रेयः अस्ति गुरूणां हननं वा अथवा
न हननं कर्तुं यदि शक्यते न हननं
तत्र अपेक्षया इति उपयुज्य वाक्यं कर्तुं
अपेक्षया वा गुरुन् न हननं
न गुरूणां हननम् अथवा गुरूणां हननस्य अपेक्षया
भोक्षु भैक्ष्यं भोक्तुं यद् इष्यति तद् तत् श्रेयः तद्
तत् श्रेयः नाम भैक्ष्य तत्र भैक्ष्यं भोजनं भैक्ष्यं भोजनं
ओके गुरूणां हननं न करोमि चेत्
नास्ति न करोमि इति नास्ति किन्तु तस्य अपेक्षया
गुरु हननं तस्य अपेक्षया
एतत् न करोमि चेत् अन्यत् करोमि इति नास्ति नाम एतस्य अपेक्षया अन्यत्
भैक्ष्यं भोक्तुं यदि इष्यति
भिक्षं भोजनं श्रेयः भवति श्रेयः नाम भिक्षं भोजनं नाम तत्र यदि तत्र निर्धनं भवामि चेदपि
इति अहं मन्ये इति
किं भगिनि
भैक्ष्यं भोजनं श्रेयम् इति अहं मन्ये
श्रेयः श्रेयः श्रेयस् इति अस्ति तत्र श्रेयस् नपुंसकलिङ्गपदम्
ओके
मनः मनसि मनांसि अतः श्रेयः श्रेयः इति पुलिङ्गपदं नास्ति
नपुंसक
अतः तत्र किम् अस्ति यदि गुरूणां हननं नाम यदि योच्यामि किं भवति अहं विजयं प्राप्नोमि वयं तत्र राजपदवीं प्राप्नुमः खलु
परन्तु तत् अपेक्षया
तस्य अपेक्षया तत् अपेक्षया न तस्य अपेक्षया
भैक्ष्यं
भोजनं नाम निर्धनं भवामि चेदपि
श्रेयः एव
श्रेयः अस्ति अतः तत्र भैक्ष्यं भोजनं भैक्ष्यं भोक्तुं यत् इष्यते तद् अपि इह लोके नाम अस्मिन् लोके श्रेयः तदपि तदपि अस्मिन् लोके तद् दृश्यते तद् समीचीनं नास्ति किन्तु तद् साक्षात् वस्तुतः तत् श्रेयः अस्ति
अस्तु
राजपदवी यदस्ति तस्य अपेक्षया
अपेक्षया तद् तद् एव भैक्ष्यमेव श्रेयः
नाम भिक्षुकपदवी एव भिक्षुकपदवी इति अथवा भिक्षुक इति स्थानमेव श्रेयः अस्ति पात्रमेव श्रेयः अस्ति अस्ति समीचीनं भगिनि न न अन्य कोऽपि तर्हि तर्हि तत्र पल्लवी भगिनी अग्रे
कृष्णः वदति भो अर्जुन त्वम् अशोच्यान् अन्वशोचः वस्तुतः एनम् आत्मानं शस्त्राणि न छिन्दन्ति पावकः न दहति न क्लेद्यन्त्यापः मारुतः च न शोषयति त्वम् अन्वशोच्यान् अन्वशोचः तर्हि शुच धातुः अस्ति येषां कृते शोकः न करणीयं
इति सत्यं सत्यं हा मास्तु शोक
तर्हि
किमर्थम् इति अग्रे उच्यते
अग्रे आम् एनम् आत्मानं शस्त्राणि न छिन्दन्ति शस्त्रे शस्त्राः छेदनं न कर्तुं शक्नोति
शस्त्राणि
न कर्तुं शक्नोति अग्निः न दहितुं शक्नोति आपः अपि आपः क्लेदनं न कर्तुं शक्नोति मारुतः तं
आपः इति किं किम् उक्तवती आपः
क्लेद न कर्तुं शक्नोति
तत्र शक्नुवन्ति यतोहि आपः तत्र बहुवचनम्
मारुतः च न शोषयति मारुतः तं तस्य शोषणम् अपि न कर्तुं शक्नोति
आत्मनः समीचीनं
यः मानवः आत्मतृप्तः त्वात्मरतिः आत्मनि एव सन्तुष्टः भवति सः एतत् जानाति यः मानवः तुष्टः अस्ति सन्तुष्टः अस्ति स्वस्य आत्मरति इत्युक्ते स्वप्रीतिः स्वस्नेहः अस्ति यस्य
आत्मरतिः तत्र तत् सम्यक् न जानामि अन्य कोऽपि वदति वा तत्र आत्मरतिः नाम किम् इति
यः आत्मनि एव रमते
रमते ओ आत्मा अस्तु भगिनि अस्तु तादृशम् अस्तु अस्तु समीचीनं भगिनि
आत्मरतिः आत्मनि एव सन्तुष्टा भवति सः एतत् जानाति अतः एव पण्डिताः नानुशोचन्ति तस्मात् त्वं धीरो भव युद्धं च कुरु तर्हि ये पण्डिताः सन्ति ते न अनुशोचन्ति, भवान् अपि न शोचतु, धीरः भवतु, युद्धं च करोतु.
हा, युद्धं करोतु इति समीचीनं भगिनी. हा अस्तु, समीचीनं, धन्यवादः. अस्तु अग्रे नरेश महोदय, अग्रे इदानीं तत्र अभ्यासान् कुर्मः. तर्हि तत्र प्रथम अभ्यासे किमपि नास्ति, तर्हि द्वितीय अभ्यासं कुर्मः. तर्हि
एतानि पदानि स्वरसन्धियुक्तानि सन्ति, यथा पश्यैताम्. पश्यैतामस्ति पश्य योग एताम्, अकारस्य एकारस्य योगं भवति, ऐकारः भवति.
हा समीचीनं, समीचीनं.
द्वेतेषाम् अत्र तु योग एतेषाम्, एतेषाम् अत्र उकारस्य एकारस्य योगनं भवति. तत्र उकारस्य एकारस्य योगनम् एकारः भवति.
न न, तत्र
वकारः भवति.
वकारः भवति, यान्तवान्त. त्वेतेषां मे अच्युत, मे अच्युत, मे योग अच्युत. तत्र एकारः अस्ति, अकारः अस्ति. अत्र अवग्रहचिह्नः आगच्छति, तत्र पूर्वरूपसन्धिः अस्ति. मे अच्युत.
अस्तु समीचीनं महोदय. अस्तु, हा अस्तु. अग्रे शोभा भगिनी, अग्रे. धन्यवादः महोदय.
आं महोदय, एवमेव अधस्थितेषु रिक्तस्थानानि पूरयत. तत्र पश्यत् इति, तत्र अयोगः पश्यत् इति, तत्र अपश्यत् इति लङ्लकारे किं, तत्र तत्र पश्यत् इति, तत्र तत्र इत्यस्य अकारस्य अपश्यत् इति अकारस्य योजनेन सवर्णसन्धिः भवति. तत्र पश्यत् इति रूपं सिद्ध्यति. अपि च परया विष्टः, तत्र परया परै इति योगः, पर इति अपि च आविष्टः अत्र. अतः परया योगः आविष्टः वस्तुतः. तत्र तत्रापि अकार आकारयोः
आकारद्वयं खलु,
दीर्घ आकार ह्रस्वाकार दीर्घ आकारयोः
द्वयमपि तत्र परया इति दीर्घ आकारः एव खलु,
परयाविष्टः एव द्वयोः आकारयोः स्थाने दीर्घादेशः भवति.
तत्र
सवर्णदीर्घसन्धिः किन्तु
भगिनी शोभगिनी, ध्वनिः सम्यक्तया न श्रूयते, केवलं मम कृते वा अथवा भवत्याः ध्वनिः?
एवं
सम्यक्
शक्नोमि. इदानीं श्रूयते वा महोदय?
हा इदानीं सम्यक् अस्ति भगिनि. हा इदानीं सम्यक् अस्ति. हा
ओ अस्तु, तत्र वाल्यूम् प्रायशः न्यूनम् आसीत् इति. हा तत्र दीर्घ आकार परया आकारः, परया इत्यस्य दीर्घ आकारः योगः, आविष्टः इत्यस्य दीर्घ आकारः. तत्र सवर्णदीर्घसन्धिः भवति द्वयोः आकारयोः, एकः दीर्घ आदेशः, अतः परयाविष्टः इति तिष्ठति. अपि च अपि तत्र पूर्वपरयोः एकादेशः इति अपि वदामः. अग्रे पश्यैतान् इति, तत्र पश्य एतान् इति अकार एकारयोः योगे तत्र वृद्धिः भवति. अकार एकारयोः ऐकारः आदेशः भवति, वृद्धि आदेशः. तदनन्तरं वर्णमेलनेन पश्यता इति रूपं स्थिति. अपि च सहसै किं तत्र सहसैवाभ्य अन्यदा इति, सहसैव अभि अन्यन्त इति, इत्युक्ते तत्र सहसा एव अभि हन्यन्त. तत्र सहसा एव अकार एकारयोः पुनः योगे वृद्धि आदेशः भूत्वा एकारः भवति, सहसैव इति भवति. सहसैव योगः अपि महोदय
सत्यं समीचीनं भगिनि.
सहसैव योगः अभि, तत्र पुनः सहसैव अकार अकारयोः योगे दीर्घ अकार आदेशः, सहसैवाभि सहसैवाभि इति भवति. इदानीं तत्र सहसैवाभि योगः अहन्यत, अतः तत्र भि अहन्यत इति. इदानीं तत्र अन्ते इकारः, इकार इकारस्य स्थाने तत्र यण् सन्धिः भवति, अतः इकारस्य य कारः सहसैवाभ्य इति भवति. तदनन्तरं सहसैवाभ्य अहन्यत, वर्णमेलनेन सहसैवाभ्यन् वाभ्य हन्यत हन्यन्त इति भवति.
समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे, समीचीनं भगिनि. अस्तु तर्हि तत्र अग्रे उषा दिवते भगिनि, अग्रे स्वरसन्धिः.
आं महोदय, स्वरसन्धिः स्वरसन्धिः इत्युक्ते स्वरः योगः स्वरः. स्वरात् स्वरे परे स्वरसन्धिः भवति. एषः अष्टविधः: सवर्णदीर्घसन्धिः, गुणसन्धिः, वृद्धिसन्धिः, यण्सन्धिः, यान्तावान्तादेशसन्धिः, पूर्वरूपसन्धिः, पररूपसन्धिः, प्रकृतिभावसन्धिः इति अष्टविधः अस्ति सन्ति. सः सर्वोपि अत्र सोदाहरणं क्रमशः निरूपितः अस्ति. तत् सावधानं पठत.
तत्र सः सर्वोपि इत्युक्ते किं?
सर्व अपि, सर्वः अपि.
नाम सः इत्युक्ते कः?
सः स्वरसन्धिः.
हा समीचीनं, सः स्वरसन्धिः. सर्व सर्वे अपि स्वरसन्धिः. अत्र सोदाहरणं नाम
सः उदाहरणं क्रमशः निरूपितः.
सः उदाहरणं नाम
अधः दत्तमस्ति महोदय.
नाम सोदाहरणं नाम उदाहरणेन सह,
उदाहरणेन सह अस्तु.
नाम समित्रं गच्छामि, मित्रेण सह गच्छामि. सोदाहरणं, स योगः उदाहरणं, नाम उदाहरणेन सह, उदाहरणेन सह क्रमशः निरूपितः
दर्शितः तत्र.
हा अस्तु,
तत् सावधानं पठत.
अस्तु प्रथमं करोतु तर्हि.
सवर्णदीर्घसन्धिः, एतानि उदाहरणानि परिशीलयत. अव्ययस्य योगः अस्य. अव्ययस् कथं पठनीयं महोदय? तत्र अव्ययस् तत्र दण्डः अस्ति अधः.
तत्र अव्ययस् इति अव्ययस् तत्र कष्टः एव खलु. अव्ययस् योगः अकारः इति एव, अथवा तत्र अन्ते अकार अवर्णः अस्ति इति वदतु.
अव्ययस् इति एव वदनीयं वा अथवा अव्ययस्य इति वदनीयं वा?
अव्ययस्य इति तत्र अव्ययस्य इति वयं जानीमः खलु. तत्र स्वरः नाम किं? यत् स्वतन्त्रेण उच्चरितुम् उच्चरितुं तत्र यस्य उच्चारणं स्वतन्त्रया भवति, किन्तु व्यञ्जनं स्वरेण सह एव भवति खलु. तर्हि
अव्ययस् योगः अकार योगः अकार आवरणे दत्तमस्ति योगः स्य अनन्तरम् अव्ययस् योगः आ योग आ परिवर्तनं भूत्वा आ गुण भूत्वा आ भवति अनन्तरं योग स्य अनन्तरम् अव्ययस् यास्य इति रूपम् आगतम्
अस्य अव्ययस्य अथवा अव्ययस् यास्य
अव्ययस् यास्य आ अव्ययस् या
अव्ययस् यास्य
या परिवर्तनं आदेशः भवति न महोदय तत्र
न यकारः पूर्वमपि अस्ति खलु भगिनि
यकारः अस्ति आकार
आकार एव तत्र सवर्णदीर्घसन्धि एव खलु तत्र यकारस्य आदेशः एतत् सर्वं नास्ति अतः अत्र यकारस्य आदेशः नास्ति केवलं दीर्घ आकारः
दीर्घ आकार एव
हा तावदेव अव्ययस्यास्य
अव्ययस्यास्य
तर्हि श्लोकं तत्र एतत् पदं श्लोके तत्र द्वितीय अध्याये
अविनाशितु तद्विद्धि येन सर्वमिदं ततं विनाशमव्ययस्यास्य न कश्चित् कर्तुम् अर्हति अविनाशि तु तद् विद्धि येन सर्वम् इदं ततं विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति
तर्हि प्रथमभागे तत्र क्रियापदं किम् अस्ति
विद्धि येन सर्वम् इदं ततम् अविनाशि
न केवलं प्रथमभागः तत्र
विद्धि
विद्धि विद्धि इत्युक्ते तत्र लकारः कः विद्धि
विद्धि विध् दातु
समीचीनं
विद्धि विद्धिः
तत्र पूर्वमपि आसीत् खलु तत्र प्राप्नुहि
लोट् लकार मध्यमपुरुषे
समीचीनं हा लोट् लकार मध्यमपुरुषे एकवचनं समीचीनं हा अतः तत्र त्वं जानातु
त्वं
किं
किं सर्वमिदं ततं
न न तत्र अविनाशि
अविनाशि विनाशि विनाश अविनाशि इत्युक्ते न विनाशन विनाशरहितं
हा समीचीनं यस्य विनाशः न भवति तेन
जानाहि
नाम
येन सर्वं सर्वमपि सर्वमिदं ततं
ततमस्ति
ततं
ततमस्ति नाम सर्वत्र तत्र
व्याप्तिः
हा समीचीनं भगिनि तत्र यस्य व्याप्तिः अस्ति सर्वत्र व्याप्तिः अस्ति तद् अथवा सः अविनाशी अस्ति नाम सः एव आत्मा तत्र सर्वत्र तत्र आत्मनः व्याप्तिः अस्ति शरीरे अतः तत्र सर्वत्र सर्वमिदं ततं येन नाम तद् अविनाशी अस्ति
विनाश
अविनाशी इति प्रायशः तत्र श्लोकं तत्र अविनाशी इति दीर्घ इकारः अस्ति वा
अविनाशी
अस्ति चेत् तत् तत्र इनि प्रत्ययस्य नियमः
अविनाशिन्
अविनाशिन् इति प्रातिपदिकं पुल्लिङ्गम् अस्ति चेत् प्रथमविभक्तिरूपं किं भवति
अविनाशिना
न अभि प्रथम तत्र गुणं यस्य
अविनाशि
किन्तु पुल्लिङ्गे दीर्घ इकारः भवति नपुंसकलिङ्गे ह्रस्व इकारः भवति
अविनाशि अविनाशिनौ अविनाशिनः इति भवति पुंलिङ्गे अविना गुणी गुणिनौ गुणिनः इति भवति
पुल्लिङ्गे पुल्लिङ्गे
पुल्लिङ्गे
हा
अत्र पुल्लिङ्गमस्ति वा नपुंसकलिङ्ग?
नपुंसकलिङ्ग, नपुंसकलिङ्ग, यतोहि तत्र येन इदं सर्वं ततं
ततं
ततं ततम् इति नपुंसकलिङ्गे अस्ति. हा अपि तत् हा तत् अविनाशि इति अतः तत् इति अस्ति खलु, तर्हि तत्र तत् सर्वनामपदम्
अविनाशि
अथ तत् अविनाशि अथ अविनाशि अपि नपुंसकलिङ्गपदं तत् अविनाशि इति जानातु इति विद्धि. अग्रे
विनाशनम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति.
हा समीचीनं, कश्चिदपि कश्चिदपि यः कोऽपि भवेत् सः एतस्य अव्ययस्य विनाशं
अव्ययस्य इत्युक्ते किं महोदय?
अव्ययम् अव्ययम् इति पदं पूर्वं वयं परिचितं पदं खलु. अव्ययं नाम तत्र वयं चिन्तयामः तत्र किं, तत्र विभक्ति नास्ति, वचनं नास्ति, नाम तत्र परिवर्तनमेव नास्ति. अव्ययं नाम परिवर्तनं. व्ययं व्ययम् इति जानाति खलु, व्ययः भवति, व्यय नाम न्यूनता भवति. तत्र व्ययमेव नास्ति, अपि तत्र वर्धनमपि नास्ति, नाम परिवर्तनमेव न भवति. तद् अव्ययम्. अतः यद् अव्ययम् अस्ति, एतत् यद् अव्ययम् अस्ति तस्य नाशः न कोऽपि कर्तुं शक्नोति शक्नोति इति अस्ति. समीचीनम्, अस्तु अग्रे. धन्यवादः भगिनी. अग्रे तत्र हा तर्हि अहम् उषास्वामिनतन भगिनी अग्रे.
अस्तु महोदय. आदाय आधाय योगः आत्मनः. आधाय योगः अ इति आधाय इति प्रथमपदम्. आयोगः त्मनः इति आत्मनः इति द्वितीयपदम्. आधाय योगः अकारयोगः आकारः दीर्घसन्धि भूत्वा आकारः भवति. आदाय योगः आयोगः त्मनः आदाय आदायात्मनः इति भवति.
आधायात्मनः समीचीनम्.
एय्थ् चाप्टर् सेकेण्ड् वर्स्. आदियज्ञ कथं कोत्र देहेऽस्मिन् मधुसूदन प्रयाणकाले च कथम् ज्ञेयोऽसि नियतात्मभिः. But this word is not
A12.
A12.
हा द्वादशः. चिन्ता मास्तु, चिन्ता मास्तु. अन्यत् अन्यं श्लोकमपि पठितवती इति चिन्तयतु, समीचीनमेव.
सर्वद्वाराणि संयम्य मनोहृदि निरुध्य च मूर्ध्न्याधायात्मनः प्राणम् आस्थितो योगधारणम्. ओ आधायात्मनः मूर्ध्न्यायात्मनः मूर्ध्नि आधायात्मनः. सर्वद्वाराणि संयम्य मनोहृदि निरुध्य च यः इन्द्रियाणि द्वारा इन्द्रिय सर्व इन्द्रियाणि संयम्य कण्ट्रोल्ड् यन्त्रणं कृत्वा मनोहृदि निरुध्य च मनः अपि चिन्तनं विना हृदि निरुध्य च हृदये स्थापितम्.
तत्र हृदि इति प्रायशः तत्र सप्तमी एव,
सप्तमी
सत्यं.
हृदये निरुध्य च निरुध्य हृदये नो अदर् थाट् मनो हृदि निरुध्य च देन् मूर्ध्न्याधा यात्मनप्राणम् आस्थितो योगधारणा.
मूर्ध्नि पुनः सप्तमी, मूर्ध्नि
मूर्ध्नि इति सप्तमी. आधायात्मनः आत्मनः मूर्ध्न्याधायात्मनः
आधाय आत्मनः
आदाय placing it in the atma pranam astito yoga dharanam this is also all prayana kale
nana prayana kale nasti nana kevalam tatra atma tatra yoga dharanam
yoga dharanam
tatra yoge tatra dharanam iti asti khalu
yoga dharanam shashti bahuvachanam for those people who are doing the
tatra dharanam tatra dharana iti stilinga padam bhagini dharana
astu astu madya
dharana namakim iti atra uktam asti tatra yoge tatra yama niyama dharana tapah dhyana iti ityadayah
samadhi
tatra dharanam namakim iti atra uktam asti
pranam astito yoga dharanam okay सो यः सर्वद्वाराणि संयम्य अपि च मनः अपि हृदये स्थापितवान् अपि च मुद्नि आत्मनः स्थापितवान् आदाय भवति सपोर्ट्
भवति आत्मनः प्राणम् आधाय नाम आत्मनः प्राणं तत्र मूर्ध्नि स्थाप्य
आत्मनः प्राणं मूर्ध्नि स्थाप्य
स्थाप्य योगधारणं आस्तितः
वन् हु स्टेस् इन् देट्
तत्र अग्रे तत्र अग्रिमश्लोके तत्र ओम् इति एकक्षरं ब्रह्म
ओम् इति एकक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् यप्रयाति त्यजन्ते
प्रयाति
त्यजन्ते प्रयाति अधेर्
इदानीं भगिनी यथा भवती उक्तवती इदानीं तु तत्र प्रयाणकाले
प्रयाणकाले प्रीवियस् वर्स् एय्त् सेकेण्ड् वर्स् आल्सो वर्स् लैक् द प्रयाणकाले च कथं
समीचीनं भगिनी तत्र अहं केवलं प्रथमभागं दृष्ट्वा तत्र अस्तु अस्तु केवलं योगधारणमिति किन्तु इदानीं तत्र सम्यक् एव तत्र प्रयाणकाले यत् अस्ति तदेव अस्ति नाम सः सः यः याति परमां गतिम्
एतत् सर्वं कृत्वा
वदतु भगिनि
जस्ट् बिफोर् लेटिङ्ग् गो आफ् द थिङ्ग् इफ् सम्बडि केन् डू आल् देट्
नाम जीवनकाले एतस्य अभ्यासं कुर्मः
अभ्यासं कुर्मः
अपि एतत् करणीयम् एतत् करणीयम् अतः तत्र तादृशचिन्तनं भवति चेत् तस्य अभ्यासं सदा यदि कुर्मः तत् तदा तस्मिन् समये निरायासेन भवति नाम तत्र
नेचुरलि
स्वभावेन एव तत्र आगच्छति किन्तु तद् पुण्यवन्तः
अभ्यासम् आवश्यकम्
अभ्यासम् आवश्यकम्
अस्तु महोदय
अस्तु धन्यवादः
धन्यवादः
अग्रे सुजाता भगिनी अग्रे
आं महोदय उपविष्टाः अनुमन्ता उपविष्टः योगः
उपद्रष्टः
क्षम्यतां वै उपद्रष्टा योगः अनुमन्त उपद्रष्टा योगः आयोगः आयोगः आयोगेन आ भवति अनुमन्त उपद्रष्टानुमन्त भवति उपद्रष्टानुमन्ता दीर्घः भवति
नाम सर्वं सर्वाणि उदाहरणानि सवर्णदीर्घसन्धेः उदाहरणानि खलु अतः सर्वत्र किन्तु सर्वत्र तत्र आकारस्य एव तत्र उदाहरणं दत्तम् अस्ति अस्तु समीचीनम् अग्रे श्लोकं पठतु भगिनि तर्हि
पुरुषः प्रकृतस्तो हि भुङ्क्ते प्रकृतिजान् गुणान् कारणं गुणसंयोगस्य सदसद्यो
भवती तत्र कुत्र अस्ति भगिनि
टेक्स्ट् 22 13
you are reading
21
अग्रिमं श्लोकं वा महोदय 21-22 अस्ति महोदय
किन्तु अग्रिमं श्लोकं पठतु तत्र उपद्रष्टानुमन्त
23 अस्ति महोदय उपद्रष्टानुमन्ता च भक्ता भर्ता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः उपद्रष्टानुमन्तः च शक्नोमि महोदय
अस्तु 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 तत्र यदि तत्र आङ्ग्लभाषायां किमपि अस्ति चेत् तत् पठतु भगिनि तावदेव
आङ्ग्लभाषां yet in this body there is another transcendental enjoyer who is the Lord the supreme proprietor who exists as the overseer and permitter and who is known as the super soul
upadrashta अनुमन्ता भर्ता भोक्ता इति तत्र कोऽपि जानाति वा तत्र उपद्रष्टा इति कीदृशपदं तत्र अजन्तपदं वा
अजन्तपदम् अस्ति उपद्रष्टा
हा किन्तु
उपद्रष्टान्तपदं
दृष्टृ इति
दृष्टा
वेदभगिनी उक्तवती वा उपद्रष्टा इति पठितः इव
पठिता एतत् उपद्रष्टा उपसर्गपूर्वः दृष्टा
किन्तु किञ्चित् भिन्नमस्ति भगिनि नाम तत्र यः नाम द्रष्टा तत्र कर्ता इति अस्ति खलु कर्ता इत्युक्ते किं किन्तु प्रातिपदिकं किम् अस्ति कर्ता
कर्तृ कर्तृ
तथैव द्रष्टा
द्रष्टृ वा
हा द्रष्टृ
द्रष्टृ
कर्तृ इव नाम धातुतः नामपदम् उत्पन्नम् अस्ति तत्र कोऽपि स्मरति वा एतत् प्रसिद्धप्रत्ययः तत्र तृच् प्रत्ययः
ओके
तदेव अस्ति अतः तत्र उपद्रष्टा अनुमन्ता अपि तथैव अनुमन्तृ भर्ता अपि
अनुमन्ता इत्युक्ते फालो एव अनुमन्ता इत्युक्ते
अनुमन्ता यः तत्र करोतु इति तत्र
अनुमति ददाति
अनुमतिं ददाति समीचीनं हा अपि भर्तृ भोक्तृ तत्र सर्वत्र तत्र तृच् प्रत्ययः इति अस्ति अस्तु समीचीनं हा तर्हि तत्र उपद्रष्टा अनुमन्ता भर्ता
भोक्ता
सर्वं धातुतः आगतानि पदानि इति अस्ति अस्तु समीचीनम् अस्तु अग्रे नरेश् महोदय अग्रे
धन्यवादः
धन्यवादः भगिनि
अस्तु
महोदय
यथा योग आकाशस्थितः यत् आकार अस्ति आकार योग आकार आकारः भवति सवर्णदीर्घसन्धि अत्र यथा योग आकाशस्थितः यथाकाशस्थितः भवति अत्र श्लोकः अस्ति नवमध्याय षष्टमं यथा काशस्थितौ नित्यं वायुः सर्वत्रगो महान् तथा सर्वाणि भूतानि मत्स्थानि उपधारय
इति उपधारय
इति उपधारय यथा काशस्थितः
नित्यं वायुः
सर्वत्र गो महान् सो यथा वायुः सर्वत्र गच्छति
हा गः नाम गच्छति समीचीनं महोदय गः
गच्छति
आकाशे स्थिते वायुः इति न
तत् तथैव उक्तवान् सः आकाशस्थितः वायुः पुल्लिङ्गे अस्ति अतः आकाशस्थितः वायुः इति विशेषणमपि पुल्लिङ्गे
तथा किं भवति तथा सर्वाणि भूतानि मत्स्थानि त्युपधारय तथा सर्वाणि भूतानि तथा
मयि सन्ति इति चिन्तयतु
उपधारय इति क्रियापदं वा तत्र
हा इति उपधारय उपधारय इति तत्र लोट्लकारः त्वम् उपधारय त्वं पठ त्वं गच्छ त्वम् उपधारय
धारय
उपधारय धारय उपधारयति वदतु महोदय
मत्स्थाने तत्र वसति
हा नाम मयि सन्ति
मयि सन्ति
मयि नाम अहं पदस्य सप्तमी मयि
सप्तमी मयि
मयि सन्ति नाम ते सर्वे अवस्थितानि मयि अवस्थितानि इति चिन्तयतु इति उपधारय नाम यथा तत्र वायुः सर्वत्र आकाशस्थितः वायुः सर्वत्र गच्छति तथैव तत्र सर्वाणि भूतानि इतस्ततः गच्छन्ति किन्तु ते सर्वे तत्र कुत्र स्थिताः ते सर्वे ते हा भगवती सन्ति मयि नाम भगवान् अतः मयि भगवती इति भगवती सन्ति अतः वयं सर्वे तत्र भगवती स्मः इति चिन्तनं
भवेत्
इति चिन्तनं करोतु अस्तु अग्रे अपि तत्र पठनं मध्ये एतेषु
एतेषु उदाहरणेषु अ इति वर्णाभ्यां परतः अ आ वर्णौ स्तः तत्र अ आ योग अ आ वर्णयोः स्थाने आकारः इत्यादेशः सम्पन्नः अस्ति अत्र तु अत्र सवर्ण दीर्घसन्धिविषये अस्ति अत्र सवर्णदीर्घेषु केवलम् अ आ विषये दत्तमस्ति यदा प्रथमं वर्णः अ अस्ति अथवा आ अस्ति द्वितीयवर्णः अ अस्ति अथवा आ अस्ति तयोः मेलनेन आ भवति
समीचीनम् अतः तत्र वर्णयोः अ अथवा आ अथवा अ योगः आ तत्र किमपि भवेत् तत्र तयोः स्थाने वर्णयोः स्थाने दीर्घ आकारः सम्पन्नः अस्ति समीचीनम् अस्तु समीचीनं महोदय अस्तु धन्यवादः अस्तु अग्रे हर्षदा भगिनी अग्रे
आम् एतानि उदाहरणानि परिशीलयत् श्रोत्रादिनि अधिक इन्द्रियाणि श्रोत्रादिन् अधिक ई अधिक ई अधिक द्रियाणि इन्द्रियाणि इत्युक्ते श्रोत्रादिन् अधिक दीर्घ ई अधिक द्रियाणि श्रोत्रादीनिन्द्रियाणि 4.26 श्रोत्रादिनिन्द्रियाण्यन्ये संयमाग्निषु जुह्वति शब्दादिन् विषयान्यन्य इन्द्रियाग्निषु जुह्वति वक्तुं न शक्नोमि मराठीभाषायां किञ्चित् वक्तुं शक्नोमि संस्कृते कठिनमस्ति प्रयत्नं करोमि संयम अग्निषु संयम अग्निषु हवन करणीय
नाम
संयम इन्द्रियस्य इन्द्रियस्य हवन करणीय इति
नाम संयम्य इति तत्र संयम इति इति एव अग्निः खलु तत्र अग्निः नाम संयम एव अग्निः अग्नौ
इन्द्रियस्य दमनं करणीय इति
इन्द्रियाणां तत्र अर्पणं करणीयम्
करणीयं कोऽपि भावभावना न पालनीय इति
श्रोत्राधीनि नाम श्रोत्रेन्द्रियं खलु श्रोत्रेन्द्रियं घ्राणेन्द्रियम् इति इन्द्रियाणि सन्ति तेषां समर्पणं संयम इति अग्न्यौ करणीयम्
अग्रे तथैव शब्दादि सर्वविषयाणाम् अपि संयमरूपी अग्नेः हवनं अर्पणं करणीयं
हवनं करणीयं समीचीनं भगिनि तथैव अस्ति नाम इन्द्रियाणाम् अर्पणमपि करणीयं प्रत्येकम् इन्द्रियं किं करोति विषयं गृह्णाति नाम श्रवणेन्द्रियं श्रोत्रेन्द्रियं किं करोति शब्दस्य ग्रहणं करोति अतः शब्दविषयं गृह्णाति श्रोत्रेन्द्रियं तथैव तत्र
महोदय इत्युक्ते अत्र कर्णस्य विषये दत्तमस्ति शब्दस्य विषये दत्तमस्ति इत्युक्ते सिम्पल् भाषायां पुरामत् सुनो पुरामत् बोलो इति खलु
तादृशमस्ति भगिनि तादृशं किन्तु तत्र मत् बोधो मत् सुनो इति एव तत्र बुरा इति त्यक्तव्यमस्ति तत्र
अस्तु 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 अस्तु
अतः तत्र सर्वं तत्र समर्पणं तत्र इन्द्रियाणामपि समर्पणम् इन्द्रियैः ग्राह्याः विषयाः अपि
समर्पणं कुत्र समर्पणं करणीयं संयमरूपी अग्निमध्ये समर्पणं करणीयम्
इति प्रथमभागे द्वितीयभागे इन्द्रियाणि एव तत्र अग्निः भवन्ति तेषु समर्पणं करणीयं पुनः इन्द्रियाणि संयम इति अग्न्यौ समर्पणीयम् अतः तत्र सर्वं तत्र संयम इति अग्न्यौ गच्छति
अस्तु धन्यवादः
अस्तु अग्रे तत्र पदवी भगिनी अग्रे
आम् उत्क्रामति अधिक ईश्वर उत्क्रामत् अधिक इकार अधिक दीर्घ इकार अधिक्श्वरः तर्हि दीर्घ इकार ह्रस्व इकार अधिक दीर्घ इकार दीर्घ इकारः एकादेशः भवति तर्हि उत्क्रामत् ईकारः श्वरः उत्क्रामतीश्वरः फिफ्टीन् सवर्णदीर्घः अपि
समीचीनं
शरीरं यद्वाप्नोति यच्चाप्युत्क्रामतीश्वरः गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् शरीरं यत् अथवा आप्नोति यत् च अपि उत्क्रामति ईश्वरः शरीरं यत् लभते यत् किमपि शरीरं अवाप्नोति तदेव उत्क्रामति ईश्वरः उत्क्रामति इत्युक्ते निर्गच्छति वा
समीचीनं सत्यं उत्क्रामति
उत्क्रामति अस्ति
क्षम्यताम् उत्क्रामति उत्क्रामति क्षम्यताम् उत्क्रामति नाम निर्गच्छति इति
ईश्वरः अत्र ईश्वरः इत्युक्ते जीवः तर्हि ईश्वरः यत् शरीरम् अवाप्नोति यच्च अपि उत्क्रामति गृहीत्वा एतानि संयाति वायुर्गन्धान् वायुर्गन्धान् अवाशयात् इत्युक्ते आशयात् वायुर्गन्धान् इव आशयात्
इव आशयात् आशयात्
तस्य आधारे वा वायुर्गन्धस्य आधारे यथा
तत्र गन्धान् गृहीत्वा सः एतानि इन्द्रियाणि गृहीत्वा संयति नाम तत्र यदा तत्र ईश्वरः पूर्व नाम पुराणशरीरं त्यजति अपि यदा तत्र नूतन नाम नूतनशरीरं प्राप्नोति खलु तर्हि तत् कीदृशम् अस्ति इति विवरणं नाम वायुः किं करोति यदा तत्र वायुः गन्धान् गृहीत्वा गच्छति खलु गन्धः कुत्रापि अस्ति किन्तु गन्धान् गृहीत्वा वायुः अन्यत्र गच्छति खलु तथैव तत्र ईश्वरः एतानि इन्द्रियाणि गृहीत्वा तैः सह नूतनशरीरं गच्छति यदा उत्क्रमति तदा एतानि इन्द्रियाणि गृहीत्वा इति अस्तु समीचीनं भगिनि तत्र उत्क्रामति ईश्वरः उत्क्रामति ईश्वरः इति अस्ति समीचीनम् अस्तु अग्रे सुजाता भगिनी अग्रे भवती पठितवती
भगिनी
तत्र उषा दिवते भगिनी पठितवती उषा स्वामिनाथन् भगिनी पठितवती वा अस्तु तर्हि तत्र शोभा भगिनी कृतवती वा अत्र
न महोदय
अस्तु अस्तु अस्तु
अस्तु इदानीं
त्यागी त्यागी इति
त्यागी त्यागी योगः इति तत्र त्यागीयोगः इत्यस्य त्यागीयस्य अन्तिमयः योगः इत्यस्य
ध्वनिः सम्यक्तया न श्रूयते भगिनि
क्षम्यतां महोदय किमर्थम् इदानीं श्रूयते वा
इदानीं किञ्चित् समीचीनं
अस्तु तत्र त्यागी इत्यस्य ईकारस्य दीर्घकारस्य इति इत्यस्य ह्रस्वकारस्य योगे पुनः सवर्णदीर्घसन्धिः भूत्वा तयोः एकादेशः दीर्घ ईकारः भवति त्यागीति इति तत्रापि च तत्र श्लोकसङ्ख्या अष्टादश तमे अध्याये एकादशतमं श्लोकम् अपि च न देहि देहभृता शक्यं यत्तुं कर्मण्येष्टतः यस्तु कर्मफलत्यागी स त्यागी इत्यभिधीयते इति नहि देहभृता शक्यं त्यक्तुं कर्माणि अशेषतः यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते. तत्र अस्माकं पदमस्ति त्यागी इति. तत्र देहभृता शक्यं नास्ति कर्माणि अशेषतः त्यक्तुम् इत्युक्ते यस्य यः किं तत्र देहस्य अभिमानः इति वक्तुं शक्नुमः अथवा सङ्गत्वं देहसङ्गत्वम् अस्ति
देहस्य पालनं यः करोति
पालनं अस्तु शरीरधारी इति तत्र एम्बाडीड् इति अपि अस्ति महोदय देहभृता यः इत्युक्ते तत्र भ्रू धातुः भर्ता इति अपि भवति भर्तृ भर्तृ इति अपि
किन्तु इदानीं तत्र भर्ता इति अस्ति तर्हि तत्र विभक्ति का
न न तत्र भर्ता अस्ति चेत् प्रथमा भवति तत्र देहभृता इति तत्र तु तृच् पुनः तृच् इति मन्ये देहभृत् इति प्रातिपदिक भृत् भृत् प्रातिपदिकं किं भवति महोदय तत्र
देहभृत्
भृत् देहभृत् इति प्रातिपदिकं भवति तस्य देहभृता इति प्रथमा
तत्र तृतीया भगिनी तत्र नाम
ओ देहभृत् अस्ति अस्तु भवत् इति क्षमतां भवत् अस्ति चेत् भवता इति भवति देहभृता इत्युक्ते तेन न शक्यम् इति भवति देहभृता नहि शक्यं त्यक्तुं किम् इत्युक्ते कर्माणि कीदृशः इत्युक्ते अशेषतः इत्युक्ते सर्वाणि कर्माणि न त्यक्तुं न शक्यते सम्पूर्णतया सम्पूर्णतया त्यक्तुं न शक्यः भवति यः तु शक्यते तेन न शक्यते यः तु कर्मफलत्यागी सा त्यागी इति अभिधीयते अतः कर्माणि त्यक्तुं न शक्यते अतः यः तु तेषां फलानां त्यागं करोति चेत् सः त्यागी इति अभिधीयते इति
समीचीनं तथैव अस्ति नाम त्यागी इत्युक्ते कर्माणां त्यागः कृतवान् इति नास्ति
फलानां
केवलं कर्मफलानां त्यागः यः कृतवान् सः त्यागी तत्र कर्माणां त्यागः सम्पूर्णतया न कर्तुं शक्यते अतः केवलं कर्मफलानां त्यागः कर्तुं शक्नुमः तद् यः करोति सः त्यागी इति उच्यते अभिधीयते नाम इति नामकरणम् इति अभिधीयते नाम इति तेषां नामकरणम् अस्ति इति समीचीनं भगिनि अस्तु
धन्यवादः
अग्रे वेदा भगिनि
महोदय गौरी योगः ईक्षते गौर् योगः इ योगः इ योगः क्षते गौर् योगः इ योग इ सवर्णदीर्घसन्धि भूत्वा इ एव तिष्ठति गौर् योगः इ योग क्षते गौरी क्षते इति रूपं
गौरी ईक्षते नाम गौरी पश्यति
गौरी
अग्रे
एतेषु उदाहरणेषु इ इति वर्णाभ्यां परतः इ ईक इ दीर्घ इ वर्णौ स्तः तत्र इ योग इ वर्णयोः स्थाने इ दीर्घ ईकार इत्यादेशः सम्पन्नः अस्ति
अतः तत्र सर्वत्र अत्र किम् अस्ति आदेशः अस्ति खलु दीर्घ दीर्घ सवर्णदीर्घ दीर्घसवर्णस्य आदेशः
एकादेशः इति स्थाने दीर्घ ईकार आयाति इति एकादेशः भवति
समीचीनं भगिनि अस्तु तथैव अस्ति अस्तु अग्रे तर्हि तत्र अग्रे उषा स्वामिनाथन भगिनी अग्रे
आं महोदय एतत् उदाहरणं परिशीलयत अत्र महोदय तेषु योगः उपजायते तेषु इति उकारान्त अन्ते उकारः अस्ति तेष् योगः उ तेषु उपजायते प्रथमं उकारः दृश्यते उकारस्य योग उकारः उ इति भवति तेषूपजायते इति अस्ति तेषूपजायते 262
द्वितीयाध्यायः बहु दीर्घः अस्ति
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधो विजायते ध्यायतो विषयान् पुंसः यस्य पुरुषस्य कृते यः विषयान् ध्यायति तस्य कृते ध्यायतः इति भवति
ध्यायतः इति भवती रूपं जानाति इति मन्ये नाम ध्यायन् इति
ध्यायन्
छत्रन्तपदं तस्य षष्ठी
आं महोदय ध्यायतो विषयान् पुंसः यः पुरुषः विषयान् ध्यायतः भवति सङ्गस्तेषूपजायते तस्य कृते इदं मम भवतु सङ्गस्तेषु उपजायते सङ्गः उपजायते तेषु कृते तस्य विषयान् कृते इच्छासम्बन्धस्य कृते इच्छा भवति विषयान् कृते यः विषयान् ध्यायतः तस्य कृते विषयान् सह विषयान् कृते सङ्गः जायते
तस्मिन् सर्वदा तत्र विषयान् विषयाणां ध्यानं करोति नाम विषयाणाम् उपरि एव तत्र तस्य मनः तस्मिन् विषये एव तिष्ठति विषयान् विषयेषु एव तिष्ठति तस्य सङ्गः भवति तैः सह सङ्गः भवति नाम तत्र सङ्गः नाम तत्र अटाच्मेण्ट् तत्र सम्बन्धः भवति अतः इदानीं सङ्गात् किं भवति
सङ्गात् सञ्जायते कामः कामः इति विषयस्य कृते मम भवतु इदं मम भवतु इच्छा भवति सङ्गः अपि इच्छा भवति कामः
कामः जायते तत्र सम्बन्धः भवति नाम तत्र किं सम्बन्धः एव तत्र नाम तत्र केवलम् तत्र संयोगः इति तत्र सङ्गः अस्ति
भवति इच्छात् कामात् क्रोधः विजायते इच्छात् आङ्गर् क्रोधः जायते
तत्र प्रथमतया सङ्गः विषये अधिकध्यानमस्ति चेत् विषयेषु अधिकध्यानमस्ति चेत् तत्र सङ्गः भवति सङ्गात् कामः भवति कामात् क्रोधः भवति इति तत्र सोपानानि तत्र क्रमः दर्शितः अस्ति क्रमः तत्र किं भगिनि
तत्र विषयता सम्बन्धः अस्ति वा
न्यायशास्त्रस्य प्रभावः खलु नाम तत्र पठामश्चेत् तत्र भगवद्गीतायाः श्लोकेषु अपि तत्र उपयोगः अस्ति अस्तु अग्रे तर्हि तत्र
एतस्मिन् उदाहरणे उ इति वर्णात् परतः उ वर्णः अस्ति तत्र ऊ योगः ऊ वर्णयोः स्थाने ऊ इति आदेशः सम्पन्नः अस्ति आ इत्येताभ्याम् आ इत्येतयोः वर्णयोः परयोः आकारः इ इत्येताभ्याम् इ इत्येतयोः परयोः ईकारः उ ऊ इत्येताभ्याम् उ ऊ इत्येतयोः परयोः ऊकारः ऋ इत्यस्मात् ऋ इत्येतयोः परयोः ऋकारः पूर्वपरयोः स्थाने एकः आदेशः भवति वयं दृष्टवन्तः अत्र अकार आकारः परः अकारः सन्ति चेत् अस्ति चेत् दीर्घ आकारः इकार ईकार परः इकार ईकारः अस्ति चेत् ईकारः भवति उकार ऊकार परः उकार ऊकारः अस्ति चेत् ऊकारः ऋकारः परः ऋ इति परः अस्ति चेत् ऋकारः एव भवति ऋकारः भवति
हा समीचीनम् अस्तु अग्रे तत्र सुजाता भगिनी अग्रे
आं महोदय आयोगः आ ये तदेव महोदय
अग्रे पठतु अग्रे
ओके आ इत्येते सवर्णाः इतादयः
ई प्लुतः तत्र ई ह्रस्वः ई दीर्घः तदनन्तरं प्लुतः अस्ति
प्लुतः
नाम तत्र
ई दीर्घः इत्यादयः अपि सवर्णाः अस्मिन् सन्धौ सवर्णयोः सवर्णयोः स्थाने
सवर्णयोः स्वरयोः स्थाने
स्वरयोः स्थाने तद्वर्णस्य दीर्घस्वरः आदेशः भवति
तद्वर्णस्य न तत्र किमस्ति
तत्तद्वर्णस्य इत्युक्ते इति
समीचीनं यत् यः वर्णः आसीत् सः सः एव वर्णस्य दीर्घस्वरः
दीर्घस्वरः
भवति
अतः सवर्णदीर्घसन्धि इति अस्य नामः
तस्य नामः न अस्य
तस्य अस्य नामः अस्ति सवर्णदीर्घसन्धि
तत्तत् वर्णस्य नाम अकारकार अस्ति चेत् आकारस्य अतः तत्तद् वर्णस्य इति समीचीनम् अग्रे
सन्धि कुरुता विद्यार्थी योगः इव विद्यार्थी ईकारः अस्ति पदान्ते ई योगः भवति ईकारः भवति विद्यार्थी इव
हा किन्तु विद्यार्थी इव इति पृथक्तया मा उच्चारणं करोतु तत्र एकमेव पदं भवेत् तर्हि
विद्यार्थी इव
अग्रे
तासु योगः उत्तमा उकारः अस्ति उकारः परे उकारः अस्ति ऊकारः भवति तासु
उत्तमा समीचीनं भगिनि तथैव अस्ति अस्तु अग्रे पल्लवी भगिनि
धन्यवादः
धन्यवादः भगिनि
ब्रह्म अक्षरसमुद्भवम् ब्रह्म इति अत्र पदान्ते अकारः अस्ति अक्षरसमुद्भवम् अत्र पदस्य आदिवर्णः अकारः अस्ति तर्हि अकारयोगे अकार दीर्घ आकारः भवति ब्रह्माक्षरसमुद्भवम् इति सिद्धपदं 3.15 कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् कर्म ब्रह्माद्भवम् ब्रह्मोद्भवम् क्षम्यताम्
ब्रह्मात् एव तत्र तस्य उद्भवः उत्पत्तिः कर्मस्य उत्पत्तिः कर्म कुतः आगतम् अस्ति ब्रह्मात् इति जानातु इति विद्धि
इति जानातु विद्धिः ब्रह्माक्षरसमुद्भवम् अत्रापि ब्रह्मा
इदानीं तत्र कर्म इति ब्रह्मात् उद्भवम् अस्ति ब्रह्म कुतः उद्भवम् अस्ति अक्षरात् समुद्भवम् अस्ति
अक्षर इत्युक्ते सुप्रीम् वा
अक्षरं यस्य नाशः नास्ति यस्य नाशः नास्ति ततः उद्भवम् अस्ति
परमात्मा
इति अर्थः सत्यं हा इति तत्र ब्रह्म इति तत्र ब्रह्म इति तत्र वेदाः इति अपि तत्र अर्थः दत्तः अस्ति वेदाः इति अथ वेद नाम तत्र ये नाम ये धर्मनिष्ठाः ते किं केवलं यानि कर्माणि तत्र वेदेषु निर्दिष्टानि सन्ति तानि एव कुर्वन्ति खलु नाम वेदेषु एतत् करोतु अस्ति चेत् तेषां पालनं कुर्वन्ति अतः तत्र कर्म नाम सर्वाणि कार्याणि तत्र वेदेषु आगतानि अतः तत्र ब्रह्मोद्भवम् अस्ति कर्म इदानीं ब्रह्म नाम वेदाः इदानीं वेदाः तत्र अक्षरसमुद्भवात् अक्षरं नाम यस्य नाशः नास्ति इति हा अग्रे
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् तस्मात् सर्वगतं
सर्वगतं नाम सर्वत्र भवति सर्वत्र तदस्ति
सर्वव्यापी
ब्रह्म नित्यम् अपि नित्यम् अस्ति
तदैव अस्ति यज्ञे प्रतिष्ठितं
तस्य प्रतिष्ठापन यज्ञे भवेत्
तर्हि कर्म ब्रह्मोद्भवं भवति इति जानातु ब्रह्म अक्षरात् उद्भवति इति जानातु तस्मात् सर्वव्यापि ब्रह्म
तत्कारणे
आम् सर्वगतं ब्रह्म नित्यं यज्ञे स्थितः इति
नित्यमस्ति तद् नाम सर्वगतं ब्रह्म नित्यमस्ति ब्रह्म नित्यमस्ति सर्वगतम् अस्ति तत् ब्रह्म यज्ञे प्रतिष्ठापयतु नाम प्रतिष्ठिताम् इति नाम तत्र यज्ञ इति अथवा यज्ञ इति तत्र प्रायशः तत्र पूजा इति अपि भवितुमर्हति यज्ञ इति होमम् इति किन्तु होमकार्यं वा पूजाकार्यं वा क्रिया एव अस्ति खलु तर्हि तत्र क्रियायामपि तत्र ब्रह्मस्मरणं भवेत् एतत् सर्वं ब्रह्मात् आगतम् अक्षरात् आगतम् इति तादृशभावः भवेत् इति मन्ये नाम सर्वदा तत्र पूजां नाम तत्र देवानां स्मरणम् एव सर्वदा भवेत् मनसि पूजावेलायाम् इति तादृशार्थः इति एतावत् वयं किं केवलं सरलरूपेण वदामः भगिनि तत्र 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 उपरि तत्र अनेके अर्थाः सन्ति वयं तत्र किं केवलं तत्र स्पर्शः एव तत्र खलु अस्तु तर्हि अग्रे धन्यवादः भगिनि अग्रे तत्र उषा दिवते भगिनि अग्रे
आं महोदय प्रतिष्ठा योगः अहं प्रतिष्ठा आकारः अस्ति अन्ते अहं पूर्वमस्ति पदम् आकारयोगः अकार आकार इति भवति प्रतिष्ठा अहम् इति रूपम् अस्ति. श्लोकः अस्ति 14.27. ब्रह्मणो हि प्रतिष्ठाहम मृतस्याव्य यस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च. अत्रापि आगतं, पूर्वं पठितं न महोदय, तदेव.
सत्यं भगिनि.
ब्रह्मणो हि, ब्रह्मणः हि प्रतिष्ठा अहम् अमृतस्य
अव्ययस्य
च शाश्वतस्य च धर्मस्य सुखस्यै
ऐकान्तिकस्य ऐकान्तिकस्य च सुखस्य
सुखस्य च
प्रतिष्ठा अहम् एव अस्मि.
उपसर्ग तिष्ठा स्था धातु.
हा, किन्तु तत्र प्रायशः तत्र हा प्रतिष्ठा. हा सत्यं भगिनि. हा प्रतिष्ठा इति
अहमेव अस्मि इति न महोदय,
अहमेव तत्र सर्वेषाम् आधारः तत्र अस्मि.
सुखस्य शाश्वतस्य धर्मस्य षष्टिविभक्त्याम् अस्ति सर्वे. ब्रह्मणो हि, ब्रह्मणः हि प्रतिष्ठा अहम् व्याप्तं न महोदय, न
अहम् अहं हि ब्रह्मणः. ब्रह्मणः इति विभक्ति का?
ब्रह्मणः ब्रह्मणः षष्टि
षष्टि एकवचनं.
एकवचनम्
अत्र तत्र अव्ययस्य अमृतस्य ब्रह्मण तत्र विशेषाणि विशेषणं अव्ययस्य ब्रह्मणः अमृतस्य ब्रह्मणः
शाश्वतस्य
तत्र शाश्वतस्य च धर्मस्य
सुखस्य
ऐकान्तिकस्य च सुखस्य.
ऐकान्तिकस्य इत्युक्ते किं महोदय? सुखस्य ऐकान्तिकस्य
नाम तत्र एकविधं सुखमेव अस्ति. नाम यत् वयं चिन्तयामः तत्र सुखम् आगच्छति गच्छति खलु अस्माकं जीवने, तत्र सुखः सुखमिति शाश्वतं नास्ति, किन्तु यत् निजसुखमस्ति तत् शाश्वतमस्ति. अतः ऐकान्तिकं तादृशं तादृशम् अन्यत् नास्ति, अनन्यं सुखम्
अल्टिमेट्.
हा, एकान्तं नाम एका एव अस्ति, नाम अनन्या इति वदामः खलु, तादृशसुखम् अन्यत् नास्ति, अन्यत् किमपि नास्ति, तादृशं सुखम् ऐकान्तिकं प्रतिष्ठा अहमेव अस्मि. नाम सुखस्य प्रतिष्ठा ऐकान्तिकं सुखस्य प्रतिष्ठा अहमस्मि.
अहमेव
शाश्वतस्य धर्मस्य प्रतिष्ठा अहमस्मि. अव्ययस्य अमृतस्य च अव्ययस्य अमृतस्य ब्रह्मणः
अहं
प्रतिष्ठा अपि अहमस्मि, अहमेव अस्मि इति अस्ति. समीचीनं भगिनि, अस्तु उत्तममस्ति. वयं बहु किमपि पठितवन्तः अद्य, तर्हि तत्र समीचीनम् अस्ति. इदानीं तत्र सुजाता भगिनी अन्ते तत्र शान्तिमन्त्रं वदति भगिनि.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कच्चिद्दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओं. श्रीगुरुभ्यो नमः. धन्यवादः महोदय.
धन्यवादः भगिनी, धन्यवादः.